सिद्धर भवतु मे सदा, पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्, संस्कृतप्रसाराय
नैजं सर्वं
तत्त्वं ददाम्यहम्, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्, संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानं माहुतं मन्ये, वन्दे संस्कृतमातरम्, वन्दे संस्कृतमातरम्।
आञ्जनेयस्य लङ्कादाहः कीदृशः आसीत् इति अस्माभिः दृष्टं। ततोपि अग्रे अद्यतनपाठभागे आञ्जनेयस्य सीतायाः पुनः दर्शनं, ततः तस्याः अनुमतिं प्राप्य लङ्कातः प्रतिगमनम् इति वृत्तान्तं भवति, तद् द्रक्ष्यामः। आदौ गतवर्गे पठितस्य पुनस्मारणं कुर्मः। आदीप्यमानपवनात्मजवालसङ्गात् इत्यस्मिन् श्लोके अश्रुभिरेव राक्षसाः अग्नेः शमनं कुर्वन्ति इति, एतत्तु न सम्भवति वस्तुतः अतिशयोक्तिः इत्युक्ते तथा धारा प्रवाहितया अश्रूणि प्रवहन्ति इति वक्तुम् एवं कुर्वन्ति। रुदन्तः एते राक्षसाः आकाशस्थाः, अग्निदाहात् भयभीत्या आकाशस्थाः, आकाशे एव स्थिताः भूरि अश्रूणि प्रवाहयन्ति इति वर्णनं श्लोकं सकृत् पठित्वा गच्छामः। आदीप्यमानपवनात्मजवालसङ्गात् अङ्गारशेषविभवाम् अवलोक्य लङ्कां, योनिस्थिता निश्चरा स्वगृहाणि नूनं, निर्वापयन्त इव नेत्र भवैः पयोभिः। या वैभवपूर्णा लङ्का इदानीम् अङ्गारशेषविभवा जाता अस्ति, यस्याः विभवः अग्निना नष्टः, दग्धः। यस्याः लङ्कायाः ऐश्वर्यं नष्टप्रायं, विभीषणगृहम् अशोकवनिकां च त्यक्त्वा अन्यत् सर्वं दग्धं किल, अतः नष्टविभवा लङ्का, भस्मीभूता लङ्का। एवं तस्य तादृशस्य उपरि तादृशस्य नष्टविभवस्य नगरस्य दर्शनं कर्तुम् अपि अशक्ताः ते। पुनः अग्निदाहात् अपि भीत्या सर्वे अपि आकाशस्थाः एव अधः पश्यन्तः अश्रूणि प्रवाहयन्ति इति भावः। अग्रिमं श्लोकं किं वदति? अग्रिमश्लोके पुत्रद्वयस्य पितृद्वयात् श्रेष्ठत्वम् इति। कौ पुत्रौ? रावणपक्षे इन्द्रजित्, श्रीरामस्य पक्षे हनुमान्। पितरौ कौ इति चेत् रावणः, अत्र स्वयं मरुत् पवनः। यथा रावणस्य अपेक्षया इन्द्रजित् समर्थतरः, तथैव पवनस्य अपेक्षया तत्पुत्रः हनुमान् सामर्थ्यवान् अस्ति इति वर्णयति. कथं वर्णयति इत्युक्ते, रावणस्य साक्षात् रणभूमौ उपस्थितिः भवति, सः स्वयं सेनां सञ्चालयति चेदपि तादृशं राक्षसाः घोरं युद्धं न कुर्वन्ति, यथा इन्द्रजितः आज्ञां प्राप्य एव कुर्वन्ति. इन्द्रजित् रणभूमौ न भवति चेदपि रणभूमात् बहिः स्थितः केवलं वाचा सेनायाः सञ्चालनं करोति चेदपि सा सेना रावणस्य साहाय्येन अपि तथा युद्धं न करोति यथा इन्द्रजितः वचनमात्रेण कथनमात्रेण तस्य आज्ञां पालयन्तः सैनिक राक्षससैनिकाः युद्धं कुर्युः इति वर्णनं. तथैव लङ्कादाह प्रसङ्गे कविः वदति यत् पवनः तु अग्नि सखः अस्ति किल, मरुत्सखा इति वयं रघुवंशे अपि पठितवन्तः. अग्निः वायुः च परस्परौ सखायौ, तथापि स्वयं पवनः अपि तथा दाहं दहनकार्यं न करिष्यत्, यथा आञ्जनेयस्य लाङ्गूलात् प्रवृत्तः अग्निः सर्वत्र यथा लङ्कादहने समर्थः आसीत् तथा तत्पित्रा अपि कर्तुं न शक्यं स्यात् इति कविः वदति. श्लोकः अस्ति चक्रे शक्रजिदाज्ञयारणमुखे यत्कर्म रक्षो गणः तत्कर्तुं क्षणदाचरक्षिति भुजा युक्तोऽप्यशक्तो भवेत्. सप्तार्चिश्च हनूमता परिचितो लङ्कामधाक्षीद्यथा तत्पित्रा मरुतायुतोऽपि न तथा दाहक्रियायां पटुः. पटुः नाम समर्थः. इदानीं लङ्कादग्धा यथा अग्निः, अग्नेः अपरं नाम अस्ति पावकः, पावयति इति पावकः अग्निः. तस्मिन् पावके आत्मानं शुद्धां विधाय सुरराजलक्ष्मीः पुनः स्वपतिम् इन्द्रं प्रति गन्तुम् ऐच्छत् इति वर्णनम्. सुरराजलक्ष्मीः किमर्थम् अत्र अस्ति इत्युक्ते, रावणः युद्धसमये देवैः सह युद्धं यदा अभवत् तदा सुरराजलक्ष्मीम् अपहृत्य लङ्कायां स्थापितवान्. इदानीं लङ्कादग्धा, रावणस्य पराजयः अपि प्रायः निश्चितः एव, अतः सा चिन्तयति इदानीं मम प्रतिगमनवेला समागता, पत्युः समीपं गच्छेयम् इति सा मत्वा लङ्का यः अग्निः लङ्कां दहति तस्मिन्नेव अग्नौ आत्मानं शुचिं विधाय सा पुनः इन्द्रसमीपं गन्तुम् ऐच्छत्, तं समागन्तुम् ऐच्छत्. अग्रे एवं यथा विनोदेन भगिन्या उक्तं गत, एवं सुदीर्घं वर्णनं विधाय अनन्तरं वदति कविः किम् अधिकेन विस्तरेण इति. अथ वाचम् इदानीं किमु विस्तरेण लङ्कापुरीं रावणबाहुगुप्तां काकुत्स्थदूतोऽयम् उपेत्य चक्रे कृतान्तदूतस्य सुखप्रवेशा इति श्लोकः. वयं श्लोकं पठितवन्तः एवं वाचामिदा एवं पठितवन्तः वाचामिदानीं किमु विस्तरेण लङ्कापुरीं रावणबाहुगुप्तां काकुत्स्थदूतोऽयमुपेत्य चक्रे कृतान्तदूतस्य सुखप्रवेशाम्. यस्यां लङ्कायां परेषां परेषां नाम शत्रूणां प्रवेशः एव निषिद्धः रावणस्य अनुमतिम् अप्राप्य न कोऽपि तत्र प्रवेष्टुं शक्तः देवाः वा अन्ये वा अन्यराजानः वा शत्रवः वा तादृशीं लङ्कां प्रवेष्टुं साक्षात् कृतान्तः अपि पूर्वं बिभेति स्म इदानीम् आञ्जनेयस्य कृत्येन आञ्जनेयस्य एवं लङ्कादहनकर्मणा रावणः पराजेतुं शक्यः इति आञ्जनेयेन तत्र प्रमाणीकृतं किल अतः इदानीं लङ्का सुखप्रवेशा जाता लङ्कायाः प्रवेशः पूर्ववत् दुर्लभतरः नास्ति सुलभः एव तत्र प्रवेशं प्राप्तुम् इति कविः वदति वाचाम् इदानीं किमु विस्तरेण किं कथयामि किं कथनीयं लङ्कापुरी रावणबाहुगुप्तां रावणस्य भुजबलेन परिरक्षिता लङ्का तत् काकुत्स्थदूतोऽयं काकुत्स्थदूतः नाम रघु रघुवीरस्य दूतः श्रीरामदूतः आञ्जनेयः इमां लङ्कां रावणबाहुगुप्तां लङ्काम् उपेत्य तां लङ्काम् आगत्य कृतान्तदूतस्य सुखप्रवेशां चक्रे अकरोत् यमराजस्य तत्र सुलभप्रवेशं साधितवान् आञ्जनेयः इदानीम् अद्यतनं पाठं पश्यामः औलत्स्य पातकि समागम जायमानम् एनः इति श्लोकः एनः नाम पापम् पापं कथं भवति आञ्जनेयपक्षे पापं तु न स्यात् खलु रावणः खलु पापमाचरितवान् इत्युक्ते यथा सत्सङ्गतिः पुण्यं प्रयच्छति तथा दुस्सङ्गतिः पापं जनयति यः आञ्जनेयः इदानीं दुस्सङ्गतौ कञ्चित् कालं यापितवान् राक्षसैः सह साक्षात् दुष्टस्य रावणस्य सभायां तेन सह सम्भाषणं कृतवान् तस्य सम्मुखीकरणं कृतवान् तेन जनितं पापं सः तत्रैव क्षालयितुम् इच्छति तस्मात् पापात् आत्मानं विमोचयितुम् इच्छति तदर्थं किं कृतवान् साक्षात् सः एव यज्ञकर्ता भूत्वा स्वबालात् जातेन अग्निना किं कृतवान् रावण राक्षसानाम् आहुतिं दत्तवान् इति श्लोकः उत्प्रेक्षा कविः कवेः इदानीं श्लोकं पठामः पौलत्स्य पातकि समागम जायमानम्
पौलस्य पातकि समागम जायमानम्
पौलस्य पातकि समागम जायमानम्
पौलस्य पातकि समागम
जायमानम् पुनान इव वानरयाय जूकः
येन पुनानिव वानराय जूकः
विजयो जवालवह्नौ
निर्वर्तिताक्षविजयो निजबालबह्वौ
भूत्वा पलाशसमिधः सुगतिर्बभूव
कृत्वा पलाशसमिधः सुगतिर्बभूव
अत्र श्लोके बहुषु पदेषु श्लेषः अस्ति अतः सावधानं वयं द्रक्ष्यामः चेत् अर्थद्वयं ततः प्रतिध्वन्यते प्रथमः अर्थः तु अर्थः कः भवति यथा कश्चन याज्ञिकः यज्ञकर्ता सः पापानि यानि जायन्ते तेषां पापानां निवृत्त्यर्थं सः यज्ञं करोति प्रायश्चित्तकर्माणि अपि भवन्ति किल कथा. सः किं करोति, पलाशसमिधः स्त्रीलिङ्गशब्दः समिद् इति, ताः स्वीकृत्य यागकुण्डे यागाग्नौ तान् जुहोति, ताः जुहोति. एवं मन्त्रोच्चारणपूर्वकं हुत्वा हवनं कृत्वा सः किं करोति, सः किं प्राप्नोति, तस्य किं फलं नाम सुगतिः, शोभना गतिः, नाम उत्तमान् लोकान् प्राप्नोति. सद्गतिः इति यथा वदामः, सुगतिः. तथा यज्ञकर्ता सुगतिं प्राप्नोति, तथैव आञ्जनेयः सुगतिं प्राप्तवान्. आञ्जनेयस्य सद्गतिः वा इति चेत्, आञ्जनेयः तु यदा श्रीरामः एव तम् आहूतवान् मया सह वैकुण्ठम् आगच्छ इति, तदा सः किम् उक्तवान्, न अहम् अस्मिन्नेव अस्यामेव भूम्यां स्थित्वा यत्र यत्र रामकीर्तनं भवति तत्र तत्र अहं भवामि इति उक्तवान्. तत् सुखमेव मम पर्याप्तम् इति उक्तवान् किल. अतः अत्र आञ्जनेयपक्षे सुगतिः इत्युक्ते सुखेन सञ्चारं प्राप्तवान्. तान् राक्षसान् यदा, राक्षसाः एव व्यवधानाः किल, मध्ये मध्ये विघ्नायन्ते, तस्य मार्गे विघ्नं कल्पयन्ति, तर्हि तान् राक्षसान् सः मारयित्वा पलाशसमिधः इव तान् अग्नौ क्षिप्त्वा लङ्कादहनसमये स्वस्य सुखसञ्चारं कल्पितवान्. सुगतिः इति आञ्जनेयपक्षे अयमर्थः भवति. यज्ञकर्तुः अर्थे तु सुगतिः इत्युक्ते सद्गतिः, उत्तमलोकाः प्राप्नोति इति भावः. एवं द्वित्रपदानां श्लेषं श्लेष स्लिष्टार्थात् जानीमः चेत् वयम् एतस्य रसास्वादं कर्तुं शक्नुमः. पदच्छेदं पश्यामः. पौलस्त्यपातकिसमागमजायमानं येनः पुनानः इव वानरयायजूकः निर्वर्तिताक्षविजयः निजवालवह्नौ हुत्वा पलाशसमिधः सुगतिः बभूव. प्रतिपदार्थं पश्यामः, अत्रैव श्लिष्टपदानाम् अर्थमपि द्रक्ष्यामः. पौलस्त्यपातकिसमागमजायमानः, पौलस्त्यः कः, रावणः, पुलस्तः, पुलस्तवंशे जातः पौलस्त्यः, पुलस्तिः इति अपि भवति, पुलस्त्यः इति अपि भवति, गोत्रापत्यं पुमान् पौलस्त्यः इति रावणस्य अपरं नाम. पौलस्त्यस्य पातकी, पौलस्त्यः एव पातकी अस्ति, पापकर्मणि सः निरतः अस्ति किल, अतः पातकम् इति, महापातकम् इति वदामः किल, पापकर्म. पौलस्त्यपातकी समागम जायमान, समागम इत्युक्ते सम्पर्कः, संसर्गः, असोसियेशन् इति अर्थः. कथं समागमः जातः आञ्जनेयस्य, सः यदा सभां प्राप्तवान् तदा आञ्जनेयस्य सम्मुखे स्थितः, तेन सह सम्भाषणं कृतवान्, तेन सह विवादमपि कृतवान्, अतः समागम इति. तेन समागमेन जायमानं एनः, एनः नाम पापं, जायमानं एनः पापं, पुनानः इव क्षालयन् इव, पुनीते, पुनीते पावयति, पुनानः शानच् प्रत्ययः, क्षालयन् इव वानरयायजूकः, यायजूकः नाम यज्ञकर्ता, वानरः एव अत्र यज्ञकर्ता, कपिरूपेण स्थितः यज्ञकर्ता हनुमान् किं कृतवान्, निर्वर्तिताक्षविजयः अक्षकुमारसदृशान् राक्षसान् सः मारितवान्, तेषां संहारं कृतवान्. अतः कृताक्षकुमारसंहारः सन् निर्वर्तिताक्ष, निर्वर्तितम् इत्युक्ते सम्पादितं, कृतं. किं कृतं? अक्षविजयः, अक्षकुमारसदृशेषु राक्षसेषु विजयं प्राप्तवान्। एवम् अन्य एतस्य श्लेषार्थे भवति, यज्ञकर्त्रा पूर्वं यज्ञकर्मणि साक्षादेव तेन न प्रवेष्टव्यम्। तत् किं करणीयम् इत्युक्ते, पूर्वं शौचं सम्पादनीयं, स्नानं तु भवत्येव, न केवलं स्नानेन किञ्चित् ध्यानमपि करणीयं, पुनः प्राणायामादिद्वारा इन्द्रियस्य निग्रहणं करणीयम्, आहारसेवनं विना स्थातव्यम्। एवं विहितेन्द्रियविजयः सन्, जितेन्द्रियः सन्नेव यज्ञकर्ता यागकर्मणि उपवेष्टुम् अर्हति, तथा अत्र श्लेषार्थः भवति। अक्षविजयः इत्युक्ते अत्र इन्द्रियविजयः, विहितेन्द्रियविजयः च सन्। आञ्जनेयस्य अपि तथा भवितुम् अर्हति, सः तु जितेन्द्रियः अस्ति। निजवालवह्नौ उत्पुत्वा, निजवालवह्नौ इत्युक्ते स्वस्य पुच्छे भवति अग्नौ, तस्य पुच्छे दीप्यमाने अग्नौ। हुत्वा इत्युक्ते किं, हव्यद्रव्यरूपेण अर्पयित्वा, तान् एतान् अक्षकुमारसदृशराक्षसान् हव्यद्रव्यरूपेण तान् अर्पयित्वा, स्वस्य बालात् जाते अग्नौ अर्पयित्वा, दत्त्वा, क्षिप्त्वा इति अर्थः साक्षात्। रावण आञ्जनेयपक्षे बालसम्भूते अग्नौ क्षिप्त्वा, यज्ञकर्तुः पक्षे हव्यद्रव्यरूपेण यज्ञ यागाग्नौ अर्पयित्वा इति अर्थः। पलाशसमिधः, पलाशाः एव समिधः इति एक अर्थः, नाम राक्षसाः। तद् कथं भवति इति चेत्, फलम् इत्युक्ते मांसम्, अतः एव व्रतदिने फल आहारः इति स्पष्टतया वक्तव्यं, नो चेत् अनर्थः भवति। पलाहारः इत्युक्ते फलम् अश्नाति इति अर्थः, मांसम् अश्नाति। पलाशाः राक्षसाः, फलम् अश्नन्ति इति पलाशाः, पलाशः, पलाशाः एव समिद्धः, पलाशाः एव काष्ठं समिद् इति, तान् अग्नौ क्षिप्त्वा इति एकः अर्थः। अपरः कः अर्थः, साक्षात् पलाशवृक्षस्य समिधः एव किल यज्ञकर्ता अग्नौ जुहोति, अतः अर्थद्वयम् अत्र सम्भवति। एवं कृत्वा, एवं हवनं कृत्वा सुगतिः बभूव, सुगतिः इति अर्थद्वयं श्लेषेण। प्रथम अर्थः अस्ति आञ्जनेयः निर्विघ्नसञ्चारः अभवत्, सुगतिः शोभना गतिः। द्वितीयः प्राप्तोत्तमलोकः यज्ञकर्ता अभवत्, यथा यज्ञकर्ता सुगतिः भवति एवं सर्वम् अनेन प्रकारेण यागकर्म सम्पाद्य कृत्वा, तथा आञ्जनेयः अपि एकं यज्ञमेव तत्र कृतवान् अस्ति इति अस्ति। आकाङ्क्षां वयं अनन्तरं पठामः, अन्वयं साक्षात् पश्यामः। पौलस्त्यपातकिसमागमजायमानं येनः पुनानः इव वानरयायजूकः निर्वर्तिताक्षविजयः सन् निजवालवह्नौ पलाशसमिधः उत्कृत्वा सुगतिः बभूव। पौलस्त्यपातकिसमागमजायमानं येनः, रावणस्य सम्पर्केण प्राप्तं पापं, तत् पापं पावयन् इव पुनानः इव, क्षालयन् इव, पापकर्म प्रक्षालयन् इव, साक्षात् यज्ञं तु न आचरितवान्, एवं राक्षसानां लङ्काग्नौ क्षेपणमेव आञ्जनेयस्य पक्षे सत्कार्यम् इति कृत्वा तद् यज्ञः एव अभवत् इति कवेः वर्णनम्। अतः पुनानः इव इति शब्दः उत्प्रेक्षात् पुनानः इव वानरयायजूकः वानररूपरूपेण स्थितः सः यज्ञकर्ता निर्वर्तिताक्षविजयः सन् जितेन्द्रियः सन् अथवा अक्षकुमारसदृशान् अनेकान् असङ्ख्याकान् राक्षसान् मारयित्वा तेषामुपरि विजयं प्राप्य निजवालवह्नौ पलाशसमिदः उत्कृत्वा स्वस्य पुच्छाग्नौ राक्षसान् क्षिप्त्वा मृतान् राक्षसान् अथवा मारयित्वा तान् तस्मिन् अग्नौ क्षिप्त्वा अथवा यथा यज्ञकर्ता पलाशकाष्ठान् काष्ठखण्डान् यथा अग्नौ क्षिपति तथा कृत्वा सुगतिः बभूव यथा यज्ञकर्ता सत्लोकम् अथवा सद्गतिं प्राप्नोति उत्तमं लोकं प्राप्नोति तथा आञ्जनेयः शोभनं सञ्चारं प्राप्तवान् इत्युक्ते सुखेन स्वेच्छया स्वच्छन्दम् अटितुं शक्तवान् तत्र। आरम्भे वयं दृष्टवन्तः प्रवेशसमये एव लङ्किणी विघ्नभूता स्थिता आसीत् तथा पदे पदे तत्र राक्षसाः नियुक्ताः भवन्ति कोऽपि एवं रहसि शत्रुः सञ्चर्यमाणः शत्रुः दृश्यते चेत् तं ते ताडे मारयन्ति अथवा राज्ञः समीपं नयन्ति किन्तु अत्र सः निर्विघ्नसञ्चारः अभवत् इति भावः। भावार्थः अस्ति यथा कश्चन यज्ञकर्ता दुष्कर्मभ्यः निवृत्तिं प्राप्तुं जितेन्द्रियः भूत्वा अग्नौ पलाशसमिदः जुहोति ततः पापमुक्तः च भूत्वा स्वर्गादि उत्तमां गतिं प्राप्नोति तथा हनुमान् पातकिनः रावणस्य दर्शनसम्भाषणादिरूपसंसर्गेण सम्भूतं दुरितं नाम पापं प्रक्षालयन्निव विहिताक्षकुमारसंहारः सन् अक्षकुमारस्य संहारं कृत्वा राक्षससमिधः राक्षसाः एव अत्र समिधः तान् राक्षसान् वालाग्नौ क्षिप्त्वा लङ्कायाम् अप्रतिहतसञ्चारः अभवत्। व्याकरणभागं वयं स्वयं पठामः। अग्रिमं श्लोकं पश्यामः। यदा एवं लङ्का दह्यमाना अस्ति तत्सर्वं तोरणस्य उपरि स्थित्वा सर्वम् आञ्जनेयः पश्यन् अस्ति। तोरणः बहु उन्नतः भवति। नगरस्य एव प्रवेशद्वारम् अस्ति किल, तदत्र तोरणम् इति उच्यते। तस्मिन् उन्नते तोरणे स्थित्वा अधः पश्यति समग्रा एव लङ्का दह्यमाना दृष्टा। एवं सति तस्य मनसि चिन्ता जायते, मया अविचिन्त्य एव कार्यं कृतम्, अकार्यं कृतं, न करणीयमासीत् मया। किं कार्यम्? एवं लङ्कादहनरूपकार्यम्। अत्र सीता अपि अस्ति इति मया न चिन्तितं खलु इति तेन आत्मना आत्मगतमेव तेन चिन्तितम्। तदा सः पूर्वमेव अस्माभिः दृष्टमासीत् यत् चारणानां वचनं श्रुतवान्। चारणाः आकाशमार्गेण सञ्चरन्ति इतस्ततः। ते चारणाः वदन्ति सीता रक्षिता, सा न दग्धा, यद्यपि समग्रा लङ्का दग्धा, सीता न दग्धा। चारणोक्त्या तद् वचनं ज्ञात्वा चिन्ताकुलः हनुमान् चिन्तामुक्तः जातः। अतः सः झटिति ततः अशोकवनिकां गच्छति, तत्र सीतादेवीं नत्वा तस्याः आशीर्वादान् प्राप्य प्रतिगमनाय उद्युक्तः भवति। प्रतिगमनार्थं सः अरिष्टपर्वतं समुद्रकूले समुद्रस्य लङ्कायाः तीरे लङ्का समीपे अरिष्टपर्वतः इति भवति, तस्मिन् पर्वते प्रथमं गत्वा शिखरे स्थितः, पुनः ततः उत्प्लुत्य सागरम् उल्लङ्घ्य अपरतीरे यदा यतः सः गतवान् महेन्द्रपर्वततः तं पर्वतं प्राप्नोति. तत्र के सन्ति? सर्वे अपि जाम्बवान्, अङ्गदः, अनेके वानराः च तस्य निरीक्षां कुर्वन्ति. तान् लङ्कादहनपर्यन्तं सर्वं वृत्तान्तं श्रावयित्वा सः तानपि तृप्तान् अकरोत् इति भावः. इदानीं श्लोकं पश्यामः. लंका दाहे प्यनार्ताम रघुपति दयिताम.
लंका दाहे प्यनार्ताम रघुपति दयिताम.
चारणोक्त्या विदित्वा.
चारणोक्त्या विदित्वा.
आनंदस्ताम प्रणम्य प्रतिगमन विधौ.
आनंदस्ताम प्रणम्य प्रतिगमन विधौ. प्राप्यतस्यानियोगम् आरुह्यारिष्टशैलं विधिमपि पयसाम्. स्वैरमुक्तिर्व्यवेगात्.
क्रे गत्वा महेन्द्रम् प्लवगकुलपतीन्
पूर्णकामान् हनुमान्.
अत्र एकं क्रियापदम् अस्ति चक्रे, कृतवान्. अन्यक्रियापदानि सर्वाणि अपि क्रियापदम् इति न सहायकक्रियाः इति वक्तुं शक्यते. यद्यद् त्वान्तं ल्यबन्तं भवति, विदित्वा, प्रणम्य, अनन्तरं प्राप्य, आरुह्य, उत्तीर्य, गत्वा एव. अतः एकं चक्रे इति कृतवान् इति क्रियापदस्य अन्यत् सर्वमपि सहायकक्रियारूपेण क्रमेण अन्वयं वयं सरलतया कर्तुं शक्नुमः. पदच्छेदं पश्यामः. लङ्कादाहे अपि अनार्तां रघुपतिदयितां चारणोक्त्या विदित्वा सानन्दः तां प्रणम्य प्रतिगमनविधौ प्राप्य तस्याः नियोगम् आरुह्य अरिष्टशैलं निधिम् अपि पयसां स्वैरम् उत्तीर्य वेगात् चक्रे गत्वा महेन्द्रं प्लवगकुलपतीन् पूर्णकामान् हनुमान्. बहु संक्षेपेण अत्र वर्णितमस्ति एतत् सर्वं. किन्तु यदि वयं वाल्मीकिरामायणं स्वीकृत्य पश्यामः चेत् पुत्राः सर्गाः एव तदर्थं सन्ति. प्रतिपदार्थं पश्यामः. लङ्कादाहे अपि, लङ्कायां भस्मीभूतायामपि, सत्सप्तमी प्रयोगः. यद्यपि लङ्का दग्धा तथापि इति अर्थः. अनार्तां रघुपतिदयिताम्. अनार्ता इत्युक्ते पीडातः मुक्ता, अपीडिता इति अर्थः. आर्तः इत्युक्ते पीडितः, दुःखितः. अनार्तः इत्युक्ते न दुःखितः, न पीडितः. अग्निना सीता अनार्ता, न पीडिता. तादृशीं रघुपतिदयितां रामभार्यां चारणोक्त्या विदित्वा, चारणानां वचनेन ज्ञात्वा. सानन्दः, आनन्देन सह वर्तमानः, प्रमुदितः, सन्तुष्टः. तां प्रणम्य, तां सीतादेवीं नत्वा. प्रतिगमनविधौ, प्रतिनिवृत्तिविधाने. लङ्कातः प्रतिगमनविधौ तस्मिन् कर्मणि प्राप्य तस्याः नियोगम्. सीतादेव्याः आज्ञां प्राप्य इति अर्थः. नियोगः इत्युक्ते आज्ञा इति अपि अर्थः भवति. तस्याः आज्ञां प्राप्य अरिष्टशैलम् आरुह्य. अरिष्टः नामकः पर्वतः, अरिष्टनामकः पर्वतः लङ्कायाम् अस्ति, समुद्रकूले अस्ति, भारतस्य दक्षिणतः भवति, इदानीन्तनभारतस्य दक्षिणतः भवति. समुद्रस्य दक्षिणतटवर्तिनम् अरिष्टनामकं पर्वतम् अधिरुह्य. निधिम् अपि पयसाम्, पयसां निधिम् इत्युक्ते जलनिधिं, समुद्रं, तोयनिधिं. स्वैरम् उत्तीर्य, स्वैरं नाम स्वच्छन्दतया. सुगतिः इति उक्तं खलु पूर्वतनश्लोके, सुगतिः बभूव. तथा न केवलं लङ्कायां सः स्वच्छन्दः अटितवान्, स्वच्छन्दः सन्, समुद्रस्य लङ्घनकरणसमये अपि स्वच्छन्दः भूत्वा, यथा कश्चन स्वसमीपगृहसमीपमार्गे गच्छति तथा बहु अनायासेन इति अर्थः, इति भावः. स्वैरम् उत्तीर्य, स्वच्छन्दतया उल्लङ्घ्य, विना क्लेशम् इति अर्थः. वेगात् चक्रे, वेगात् इत्युक्ते वेगेन इति अर्थः, चक्रे अकरोत्. किम् अकरोत्? गत्वा महेन्द्रं प्राप्य समुद्रस्य उत्तरतटवर्तिनं महेन्द्रनामकं पर्वतं. लङ्कायाः अपेक्षया उत्तरे उत्तरे अस्ति एषः पर्वतः. हिमालयस्य अपेक्षया तु दक्षिणे एव किल, भारतस्य दक्षिणतम भागे अस्ति. अतः तं महेन्द्रं प्राप्य प्लवगकुलपतीं पूर्णकामान् चक्रे. प्लवगकुलपति, प्लवगकुलपतयः के? सुग्रीवः, अङ्गदः इति प्रमुखाः वानरप्रमुखाः. अङ्गदादीन् वानरकुलमुख्यान् पूर्णकामान्, पूर्णमनोरथान् कृतवान् आञ्जनेयः, चक्रे नाम कृतवान्. अत्र महेन्द्रपर्वतविषये एकम् अस्ति. अत्र भारतस्य दक्षिणभागे केरलतमिळ्नाडुप्रान्तयोः सीमाप्रान्ते महेन्द्रपर्वतः स्थितः अस्ति. तत्रैव एकं सुन्दर देवालयः अपि अस्ति, तिरुक्कुरुङ्गुडि इति. दिव्य अष्टोत्तरशतं दिव्यदेशाः सन्ति किल, तेषु एकं तत्र एषः पर्वतः अस्ति, तिरुनल्वेलीप्रदेशे. महेन्द्रः मलयस्य ह्यः देवतात्मा हिमालयः, ध्येयो रैवतकः विन्ध्यः, गिरिः चारावलिः, गिरिः च अरावलिः तथा इति सप्तपुण्यपर्वताः, तेषु एकः अन्यतमः महेन्द्रः. तं महेन्द्रपर्वतम् आञ्जनेयः प्राप्तवान् इति अर्थः. इदानीम् अन्वयं पश्यामः. हनुमान् लङ्कादाहे अपि चारणोक्त्या रघुपतिदयिताम् अनार्तां विदित्वा सानन्दः सन् तां प्रणम्य प्रतिगमनविधौ तस्याः नियोगं प्राप्य अरिष्टशैलम् आरुह्य स्वैरं पयसां निधिम् उत्तीर्य वेगात् महेन्द्रं गत्वा प्लवगकुलपतीन् पूर्णकामान् चक्रे. अत्यन्तं सरलमस्ति, अन्वितम् अन्वितः श्लोकभागः. लङ्कादाहे अपि, यद्यपि लङ्का दह्यमाना, तथापि चारणानां कथनेन, चारणाः उपरि परस्परं कथयन्ति स्म, तेषां वचनं श्रुतवान् हनुमान्. किम् इति वचनं? न दग्धा सीता इति. दग्धेयं नगरी लङ्का अट्टप्राकारतोरणा, जानकीन च दग्धेति विस्मयोद्भुत एव नः. अस्माकं अस्माकं तु विस्मयस्य विषयः एषः. कः विषयः इत्युक्ते, इयं नगरी लङ्का दग्धा, प्राकाराः, तोरणाः, अट्टालिकाः सर्वे अपि दग्धा दग्धाः, किन्तु जानकी दग्धा इति तु विस्मयस्य विषयः. इति यद् चारणाः परस्परं कथयन्ति स्म, तत् वचनं, परस्परम् उक्तं वचनं श्रुत्वा प्रहृष्टः आञ्जनेयः, अत्यन्तं सन्तुष्टः. पूर्वं तस्य मनसि आत्मग्लानिः आसीत्, मया अनर्थं कृतम् अनर्थः कृतः इति, किन्तु इदानीं सः आश्वस्तः, अतः सन्तुष्टः. सः अशोकवनिकां गतः. तत्र यत्र सीता स्थिता आसीत्, तां देवीं तत्रैव शिंशुपावृक्षस्य अधः तत्र गत्वा तां देवीं नत्वा तस्याः अनुमतिं प्राप्य गमनाय लङ्कासमुद्रतटस्थम् अरिष्टपर्वतम् आरूढवान्. ततः लीलया एव स्वच्छन्दम् इति उक्तं किल, स्वैरं समुद्रम् उल्लङ्घ्य महेन्द्रगिरिं प्राप्य तत्र स्थितान् अङ्गदादीन् कपिप्रमुखान् स्वदौत्यवृत्तान्तं विज्ञाप्य सः तान् पूर्णमनोरथान् अकरोत्. तेषां मनोरथः इदानीं सफलः जातः किल, अतः तान् तृप्तान् अकरोत् आञ्जनेयः. श्रीमद्वाल्मीकिना रामायणे यथा आरम्भे एव मया उक्तम्, अत्यन्तं विस्तरेण सर्वं वर्णितं, तत् पठनीयम् अस्माभिः. तथापि केचन प्रमुखश्लोकाः अत्र उद्धृताः सन्ति, सकृत् एतान् श्लोकान् पश्यामः. स तथा चिन्तयन्स्तत्र देव्या धर्मपरिग्रहम्, शुश्राव हनुमांस्तत्र चारणानां महात्मनां, दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा, जानकी न च दग्धेति विस्मयोद्भुत एव नः. सः एवं चिन्तयन् स्थितः आञ्जनेयः यत् मया अनर्थः कृतः. पुनः तेन एव आञ्जनेयेन चिन्तितम् आसीत् यत् अग्निसदृशी एषा पवित्रा अस्ति, रामः अतुलवीरः अस्ति, एवं तयोः द्वयोः एवं असत्योः किमपि न भवितुमर्हति, सीतायाः अपायः न जायते एव इति यदा सः स्वयमेव स्मृतवान्, तदा एव चारणानां वचनमपि श्रुतवान्, अतः तस्य विश्वासः दृढः जातः, एवं श्रुतवान् सः. तत्र गत्वा साक्षात् सीतां दृष्टवान्. तत्र श्लोकः अस्ति, समाश्वसि हि भद्रं ते भवत्वं कालकाङ्क्षिणी, क्षिप्रं द्रक्ष्यसि रामेण निहतं रावणं रणे. समाश्वसि हि हे देवी, त्वम् आश्वासं धरतु, आशां धरतु, त्वं कालकाङ्क्षिणी भव इत्युक्ते निरीक्षां कुरु, ते भद्रं भवति एव, तव भद्रं कल्याणं शुभं भवति, कालं किञ्चित् पालयतु, समयं पालयतु, निरीक्षताम्. क्षिप्रं द्रक्ष्यसि, किं द्रक्ष्यसि, रावणं निहतं, हतं रावणं रणे द्रक्ष्यसि, केन सः हतः भवति, रामेण. एवमाश्वास्य वैदेही हनुमान् मारुतात्मजः, गमनाय मतिं कृत्वा वैदेहीम् अभ्यवादयत्. वैदेह्याः अभिवादनं कृत्वा सः प्रस्थितः, गन्तुम् उद्युक्तः. प्रतिगन्तुं मनश्चक्रे पुनर्मध्येन सागरं शार्दूलः, स्वामी सन्दर्शनोत्सुकः. स्वामिनः सन्दर्शनं दर्शनं कर्तुम् उत्सुकः आसीत् सः, अतः सः गमनाय मनः कृतवान्. आरुरोहगिरिश्रेष्ठम् अरिष्टम् अरिमर्दनः, सतम् आरुह्य शैलेन्द्रं व्यवर्धत महाकपिः. वयं पूर्वमपि दृष्टवन्तः आरम्भे, यदा सः महेन्द्रपर्वततः समुद्रमार्गेण गन्तुं प्रस्थितः, तदा आत्मानम् आत्मनः शरीरं वर्धितवान्, तथैव इदानीमपि सः व्यवर्धत, समुद्रलङ्घनार्थं व्यवर्धत. प्रपेदे हरिशार्दूलः दक्षिणात् उत्तरां दिशम्. लङ्का तु दक्षिण अस्ति, अतः दक्षिणात् उत्तरां दिशं प्रति सः प्रपेदे. प्रपेदे नाम प्राप्तवान्. आप्लुत्य तु महावेगः पक्षवान् इव पर्वतः. पश्यतु अत्र सुन्दरं वर्णनमस्ति, पक्षवान् पर्वतः इव सः प्लवनं कृत्वा आगतवान्. पर्वतसदृशगात्रं तस्य, तथा सः विशालकायः भूत्वा सागरस्य उपरि प्लवनं कृत्वा अत्र प्राप्तवान्, महेन्द्रगिरिं प्राप्तवान्. ये तु तत्रोत्तरे कूले समुद्रस्य महाबलाः. ये पूर्वं वानराः ये तं प्रेषितवन्तः, ते इदानीं कुतूहलेन व्याकुलाः सन्तः निरीक्षां कुर्वन्ति. उत्तरे कूले समुद्र, कूलः कूलम् इत्युक्ते तीरं, समुद्रस्य उत्तरे तीरे ते महाबलाः, अङ्गदादयः, जाम्बवान् इति अन्ये च, शुश्रुवुस्ते तदा घोषम् ऊरुवेगं हनूमतः, प्लवमानस्य हनूमतः नादम्, उच्चैः नादम् अकरोत् हनुमान्, वायुमार्गेण आगच्छन् तं नादं शुश्रुवुः ते श्रुतवन्तः. एवं तादृशं महत् महान्तं नादं श्रुत्वा जाम्बवान् किं चिन्तयति इति अग्रे वयं पश्यामः. गद्यभागः अस्ति. अथ यथार्हम् सैन्याधिपान् सम्मान्य,
सैन्याधिपान् सम्मान्य
मारुतिः तैः अनुयुक्तः,
मारुतिः तैः अनुयुक्तः
स्ववृत्तान्तं किम् आख्यातवान्,
स्ववृत्तान्तम् अखिलम् आख्यातवान्.
अथ नाम महेन्द्रगिरिं प्राप्य. यथार्हम् उचितम्, यथार्हम् अर्हम् अनतिक्रम्य, यथार्हम् सैन्याधिपान् सम्मान्य. सैन्याधिपाः के? अङ्गदादयः. तान् सम्मान्य, ते तान् सम्पूज्य, तेषां तान् प्रति आदरं निवेद्य, मारुतिः हनुमान् तैः अनुयुक्तः, तैः सेनानायकैः पृष्टः. अनुयुक्तः इत्युक्ते पृष्टः, अनुयुङ्क्ते इत्युक्ते पृच्छति, अनुयुक्तः पृष्टः स्ववृत्तान्तं, स्वस्य लङ्कायां कृतानि कर्माणि सर्वं, वृत्तान्तम् अखिलं समग्रमपि आख्यातवान्, कथितवान्. आख्याति इत्युक्ते वदति, तेभ्यः कथितवान्. वस्तुतः तत्र सर्गद्वयम् अस्ति तस्य वृत्तान्तवर्णनं, कांश्चन श्लोकान् अत्र अहम् उद्धृतवती. श्रीमद्वाल्मीकिरामायणे अस्ति, पूर्वं संविष्ठितं शूरा वायुपुत्रदिदृक्षवः. वायुपुत्रं द्रष्टुमिच्छवः, ते सर्वे अपि तत्र स्थिताः. कदा एषः आगच्छति, कां वार्तां श्रावयति इति ते ज्ञातुम् इच्छन्तः तत्र स्थिताः. कुत्र? महेन्द्रगिरौ समुद्रस्य कूले एव स्थिताः अङ्गदादयः. जाम्बवान् स हरिश्रेष्ठः प्रीति संहृष्टमानसः. जाम्बवान् सः प्रीति संहृष्टमानसः, तस्य मनसि आञ्जनेये प्रीतिः स्नेहः च अस्ति, सन्तुष्टः अपि अस्ति सः. कथम्? इदानीं तु आञ्जनेयः किमपि न उक्तवान् इत्युक्ते, उपामन्त्र्य हरीन् सर्वान्, இதம் வச்சனம் அப்ரவீத் சர்வான் ஹரீன் சர்வான் வானரான் உபாமந்திரிய சர்வான் ஆமந்திரிய சமீபம் ஆமந்திரிய உப ஆமந்திரிய சமீபம் ஆனிய உக்தவான் சர்வான் இதம் வச்சனம் கிம் வச்சனம் சர்வதா கிருத காரியோசௌ ஹனுமான் நாத்ர சம்சயஹ நஹ்யஸ்யா கிருத காரியஸ்ய நாத ஏவம் விதோ பவேத். வயம் பூர்வம் திருஷ்டவந்தா கிள ஏகா ஏகம் வச்சனம் யத் மகத் கோஷம் ஸ்ருதவந்தா தஸ்ய ஹனுமதா தத் மகாநாதஹ கத் கதா பவிதும் அர்ஹதி காரியம் சாதிதவான் இதி காரணேன ஏவ சர்வதா கிருத காரியஹ அஸௌ ஏஷ ஹனுமான் நிச்சயேன காரியம் சாதிதவான் தஸ்மை தத்தம் காரியம் சஹ கிருத்தவானஸ்தி கிருத காரிய கிருத்தம் காரியம் ஏன சா அத்த சம்சயம் நாஸ்தி நஹி அஸ்ய அகிருத காரியஸ்ய ஏவம் வித நாத பவிதும் அர்ஹதி. யதி சஹ காரியம் ந கரிஷ்யத் தர்ஹி தஸ்ய நாத ஏவம் உச்சைஹி ந அபவிஷ்யத் இதி வததி. தத்தாப்யாம் பூஜித பூஜ்யஹ கபிபிஹ் ப்ரஸாதிதஹ த்ருஷ்டா தேவீதி விக்ராந்தஹ சங்க்ஷேபேண ந்யவேதயத் ஸஹ தாப்யாம் பூஜிதஹ ஜாம்பவதா ச அங்கதேன ச பூஜிதஹ புனஹ ஸ்வயமபி யஹ பூஜ்யஹ பூஜா யோக்யஹ கபிபிஹ் ப்ரஸாதிதஹ ஸர்வே கபயஹ தம் பரிதஹ உபவிஷந்தி. பஹு தத்ர வினோதேன பஹு சரஸ வர்ணனம் அஸ்தி வால்மீகி ராமாயணே. கேச்சன கபயஹ விரக்ஷாஷாகாதஹ கானிச்சன ஃபலானி ஆனீய யச்சந்தி கில கிலாயந்தே உச்சைஹி ஹசந்தி பரஸ்பரம் சம்பாஷந்தே சந்தோஷம் பிரகடயந்தி இத்யாதிகம் வர்ணனம் சர்வம் அஸ்தி தத்ர. ததா தைஹி ஸஹ ப்ரஸாதிதஹ தே அபி பஹு சந்துஷ்டாஹ தம் ப்ருச்சந்தி கிம் அபவத் கிம் கிருத்தவான் தத்ர கிம் அபவத் சீதா தேவி திருஷ்டா வா இத்யாதிகம் பிருச்சந்தி. ததா ஆஞ்சனேயஹ திருஷ்டா தேவி இதி விக்ராந்தஹ ஆஞ்சனேயஹ சங்க்ஷேபேண தான் சர்வான் கபீன் ந்யவேதயத். ததோ திருஷ்டேதி வச்சனம் மஹார்த்தம் அமிருதோபமம் நிஷம்ய மாருதே சர்வே முதிதா வானரா பவன் சர்வே வானராஹ முதிதாஹ பிரமுதிதாஹ அபவன் சந்துஷ்டாஹ கிம் ஸ்ருத்வா திருஷ்டா தேவி இதி வச்சனம் அமிருதோபமம் வச்சனம் ஸ்ருத்வா தே அத்யந்தம் சந்துஷ்டாஹ அதிமாத்திரேண சந்துஷ்டாஹ இதி. தன லிகிதம் அஸ்தி ஹனுமதா கதிதம் ஸ்வலங்கா யாத்ரா விருத்தாந்தஹ இதி சர்கத்வயே வர்ணிதஹ அஸ்தி அது சர்வைஹி பட்யதாம் இதி மம பிரார்த்தனா. இத்தோபி பஞ்ச நிமிஷாக சந்தி ஏதம் கத்ய பாகம் வயம் சமாபயாமி. ததனு
ததனு
பவனதனய வச்சனம்
பவனதனய வச்சனம்
உதிதானரம் யூதானுயாத யூதநாதானுயாத
அஹமிகயாதாவந்தி
மத்யேசரணி தத்முககிருதாவனம் மதுவனம்
மதுவனம்
ஹனுமதனுமத்யா அபிபூய
ஹனுமதனுமத்யா அபிபூய
மதுபான சுகம் அனுபபூவ
மதுபானசுகம் அனுபபூவ.
ததனு நாம ததனந்தரம் கஸ்ய அனந்தரம் யதா விருத்தாந்தம் ஶ்ராவிதவான் சர்வே அபி அத்யந்தம் சந்துஷ்டாஹ இதானீம் கிம் பவதி தேஷாம் சர்வேஷாம் அபி इच्छा भवति यत् शीघ्रतरं गत्वा श्रीरामं राजानं सुग्रीवं च श्रावयेम्। एतद् वचनम् एतद् एतां वार्तां झटिति गत्वा श्रावयामः इति एव किल भवति तेषाम्। अतः तदनु तदनन्तरं पवनतनयवचनं वचनेन मुदिता, आञ्जनेयस्य वचनेन प्रहृष्टाः वानरवरूथिनी। वरूथिनी इत्युक्ते सेना, वानरसेना यूथनाथा नाथानुयाता। सा सेना यूथानां नाथाः सन्ति किल, जाम्बवान्, अङ्गदः, तै तेषां पृष्ठतः एते अपि धाविताः। अग्रे अग्रे सेनापतयः गच्छन्ति, प्रमुखाः गच्छन्ति, पृष्ठतः इतरवानराः तान् प्रमुखान् अनुगताः भवन्ति। तद्दर्शनजनितम् आनन्दम्, तद्दर्शनजनितम् आनन्दं नाम किम्? आञ्जनेयेन सीतादर्शनजनितम् आनन्दम्। सीतायाः दर्शनं यद् प्राप्तं तां सुखवार्तां, तत् सन्तोषजनकं वचनं दाशरथौ सुग्रीवे च संविभज्य इव, रामे सुग्रीवे च संविभज्य उक्त्वा, संविभज्य विवक्षितुम् अहमिकया, अहं प्रथमं गच्छामि, अहं पूर्वं गच्छामि इति परस्परं स्पर्धाभावेन ते धावन्ति। सा सेना धावन्ती, शत्रुप्रत्ययः, धावन्ती मध्ये सरणि। यदा सा सेना एवं धाविता, ते वानराः एवं धाविताः, मार्गमध्ये एव ते अत्यन्तं प्रहृष्टाः किल हर्षातिरेकेण, ते किं कुर्वन्ति? एकं मधुवनमस्ति, दधिमुखः इति कश्चन सुग्रीवमातुलः, सः एव तस्य वनस्य रक्षकः। दधिमुखकृतावनम्, अवनं नाम रक्षणम्, दधिमुखेन कृतम् अवनं यस्य मधुवनस्य, तत् मधुवनं गत्वा हनुमतः अनुमतिमपि पृच्छन्ति। अनुमतिं प्राप्य मधुपानं तत् मधुवनम् अभिभूय तस्य प्रध्वंसनं कृत्वा मधुपानसुखम् अनुभूतवन्तः ते वानराः। अत्र कानिचन पदानि दत्तानि सन्ति, वरूथिनी नाम सेना, यूथनाथानुयाता नाम वानरप्रमुखान् अनुगताः, एते सर्वे। अनुयाता इति एकवचनं, सेना वरूथिनी इति पदस्य, यदि वानराः चेत् वानरप्रमुखान् अङ्गदादीन् अनुगताः एते। आनन्दशरधौ, आनन्दाश्रये, आनन्दशरधौ शरान्, शराः अस्मिन् धीयन्ते इति शरधिः इति सायकः भवति किल, यत्र बाणाः तिष्ठन्ति, तूणीरः इति वदामः, तूणीरम्। आनन्दशरधौ इत्युक्ते आनन्दः एव शरः इति चिन्तयतु रामस्य, तादृश आनन्दशराणां सः आश्रयस्थानमस्ति श्रीरामः, निधानमस्ति इत्युक्ते आनन्दधाम सः। तादृशे दाशरथौ, तादृशे रामे एतत् संविभज्य ते वक्तुमिच्छन्ति एतां वार्तां। मध्ये सरणि इत्युक्ते मार्गस्य मध्ये, मध्ये मार्गं। दधिमुखकृतावनं, दधिमुखकृतरक्षणम्। अभिभूय इत्युक्ते आक्रम्। भवार्थः, हनुमतः वृत्तान्तकथनं श्रुत्वा वानरसेना अत्यन्तं प्रहृष्टा सती हनुमत्कृतसीतादर्शनेन जातम् आनन्दम्। आनन्दनिधौ श्रीरामे कपिराजे सुग्रीवे च संविभक्तुम् ऐच्छत्। यदा आनन्दः भवति परस्परं तस्य संविभागेन किं भवति? आनन्दः वर्धते। शोकः अपि परस्परं संविभागेन शोकः न्यूनः भवति, तदेव प्रकृतेः नियतिः। दुःखस्य विभजनं कुर्मः चेत्, संविभजनं कुर्मः चेत् दुःखं न्यूनं भवति, आनन्दस्य संविभागं कुर्मः चेत् आनन्दः वर्धते. एवं तत्र गत्वा अपि उक्त्वा रामस्य समी सकाशे सुग्रीवस्य सकाशे एतत् संविभजितुम् इष्टवन्तः ते वानराः. अतः इमां शुभवार्तां वक्तुकामाः ते जाम्बवद् अङ्गदादिपुरस्सराः, एतान् पुरस्कृत्य गतवन्तः ते वानराः. अहं पूर्वम् इति प्रतिस्पर्धाभावेन धावितवन्तः. गमनमार्गे सुग्रीवमातुलेन दधिमुखेन रक्षितं मधुवनम् अत्यन्तं हर्षिताः सन्तः, हृष्टाः सन्तः, हर्षातिरेकेण हनूमतः अनुज्ञया च तत् वनं विध्वंस्य ते तत्र यथेच्छं मधुपानजनितं सुखम् अनुभूतवन्तः वानराः.
भगिनी, अत्र गद्यभागे पदच्छेदे आनन्दशरदौ
तत् त्यक्तं किल,
इस् मिस्सिङ्ग्,
योजयामः सत्यम्. इदानीम् अहमपि पठनसमये एव तत् दृष्टवती, तत् योजयामः. अत्र अन्यस्मिन् पुस्तके आनन्दसागरे इति दत्तमस्ति. यद्यपि भावः समीचीनः किन्तु शरभिः इत्युक्ते तूणीरम्. यथा शराः तूणीरे भवन्ति तथा आनन्दरूपशराः एव वर्षयति श्रीरामः सर्वेषु. ते शराः यत्र सन्ति तादृशः एकं स्थानं, तादृश आश्रयः अस्ति श्रीरामः इति एव भावम् अवगतवती अहम्. अन्य पुस्तके कथं दत्तमस्ति इति पश्यन्तु. अत्र आनन्दसागरे इति दत्तमस्ति, तस्य दत्तः अर्थः तत्
अर्थम् आनन्दसागरे.
अस्तु, अत्र समापयामः शान्तिमन्त्रे. सर्वे भवन्तु
सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः.
हरि ओम्, शुभरात्रिः.
शुभरात्रि.